एकादश मंत्र का शंकर भाष्य। यत एवम तो विद्याम चा अविद्याम च देवतन ज्ञानम कर्म चेत्यर्थः यस्तदेतदुभयम् सहैकेन पुरुषेण अनुष्ठेयम् वेद तस्यैवम् समुच्चयकारिण एव एकपुरुषार्थ संबंधः क्रमेण स्यादित्युच्यते। अविद्यया कर्मणा अग्निहोत्रादिना मृत्युम् स्वाभाविकम्, कर्मज्ञानं च मृत्युशब्दवाच्यमुभयं तीर्त्वा अतिक्रम्य विद्यया देवताज्ञानेनामृतं देवताभावम् अश्नुते प्राप्नोति। तद्ययमृतम् उच्यते यद्देवतात्मगमनम्।